Paramatmane Namaha Shri Patanjala Yoga Darshanam Adha Vibhuti Padaha Desha Bandhas Chittasya Dharana Tatra Pratyayaikatanata Dhyanam Tadevarthamatra Nirbhasam Svarupa Shunyamiva Samadhihi Trayamekatra Sayyamaha Tajjayat Prajna Lokaha Tasya Bhumishu Viniyogaha Trayamantarangam Purvebhyaha Tadapi Bahirangam Nirbijasya Vyutthana Nirodha Samskarayorabhibhava Pradurbhavau Nirodha Kshana Chittanvayo Nirodha Parinamaha Tasya Prashanta Vahita Samskarat Sarvartha Taikagratayo Kshayodayau Chittasya Samadhi Parinamaha Tatav Punashanto Jitau Tulya Pratyayau Chittasyaikagrata Parinamaha Etena Bhutendriyeshu Dharma Lakshanavastha Parinama Vyakhyataha Shantojita Vyapadeshya Dharmanupati Dharmi Kramanyatvam Parinamanyatvehe Tuhu Parinamatraya Sayyamadachitanagatajnanam Shabdartha Pratyayanamitaretaradhyasat Sankarastat Pravibhaga Sayyamat Sarvabhutarutajnanam Samkara Sakshat Karanat Purva Jati Jnanam Pratyayasya Parachitta Jnanam Nachatat Salambanantasya Shai Bhutatvat Kaya Rupa Sayyamat Tadgrahya Shakti Stambhe Chakshuf Prakasha Samprayogentardhanam Sopakraman Nirupakraman Chakarma Tatsayyamadaparantajnanamarishtebhyova Maitriyadishu Balani Baleshu Hasti Baladini Pravritya Lokanyasat Sukshma Vyavahita Viprakrishta Jnanam Bhuvana Jnanam Surye Sayyamat Chandre Tara Vyuha Jnanam Dhruve Tatgati Jnanam Nabhi Chakre Kaya Vyuha Jnanam Kandha Gupe Kshutti Pasa Nivrittihi Kurma Nadyam Stharyam Murdha Jyotishi Siddha Darshanam pratibhadva sarvam hridaye citta samviti sattva purushayo ratyanta sankirnayo pratyaya vishesho bhoga parathatvat svartha sayamat purusha jnanam ततः प्रातिभश्रावण वेदना दर्शास्वादवार्ता जायन्ते ते समाधावुपसर्गा व्युत्थाये सिद्धयः बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च समानजयाज्ज्वलनम् श्रोत्राकाशयो सम्बन्धसंयमाद्दिव्यं श्रोत्रम् कायाकाशयो सम्बन्धसंयमाल्लघुतूल समापत्तेश्चाकाशगमनम् बहिरकल्पिता वृत्तिर्महाविदेह ततः प्रकाशावरणक्षयः स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमात् भूतजयः ततो निमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ततो मनोजवित्वं विकरणभावः प्रधानजयश्च सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वम् सर्वज्ञातृत्वं च तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् क्षणतत् क्रमयो संयमाद्विवेकजं ज्ञानम् जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः तारकं सर्वविषयं सर्वधा विषयमक्रं चेति विवेकजं ज्ञानम् सत्त्वपुरुषयो शुद्धिसाम्ये कैवल्यम् इति श्रीपातञ्जलयोगदर्शने विभूतिपादो नाम तृतीयः पादः